वृथा तमस्विना विवदम् तिरोऽन्यम् दत्तम् रत्नानि दाशुषे गन्धुरेण त्रिवृता सुपे च सारथेनाया तमस्विना कण्वासो वाम् ब्रह्म कण्वन्त्यध्वरे तेषाम् चतुर्वृतम्भवम् अश्विनामधुमत्तमम् पादम् सोमामृता वृथा अथाद्यतस्रापसु बिभ्रतारथे रास्वाम् समुपागच्छतम् ऋषधस्ते वरिषिणे विश्ववेदसामध्वा यज्ञम् विमिक्षतम् कण्वा सोमाम् सुरसोमा अभिद्यावो युवाम् भावन्ते अश्विना याभिः कण्वामभिक्तिभिप्रावदम् युवमश्विना ताभिष्टाम् सुभस्पती पातम् सोमामृता वृथा सुदासेन स्रावसुविभ्रतारथे वृक्षो महतमस्या यजम् स मुद्रा दुतवा दिवस्पर्यस्मे धत्तम् पुरःस्पृहम् यज्ञा सत्यावरावति यद्भास्तो अधि दुर्वसे अतोरथेन सुमृतानागतम् साकम् सूर्यस्य रश्मिभिः अर्वाचाभाम् सप्तयोध्वरश्रियो वहन्तु सभने सुप इषम् रञ्जन्ता सुकृते सुरानभाभिर्यस्तीरतम् नरा तेन सत्यागतम् रसेन सूर्यत्वजा येन दस्तदोहधद्वासुषेम सुमध्वस्तोमस्य बीतये मुक्तेभिरर्वागवासे पुरोवसो अर्कैश्च निपायामहे सर्वकन्वानाम् सदासि प्रियेहितम् सोमम् प्रवसोरश्विना